अथ द्वितीयोऽध्यायः नारद उवाच वृथा खेदसे बाले अहो चिंता तुरा कथम श्रीकृष्ण चरणाम्भोजम् स्मर दुःखम् गमिष्यति द्रौपदी च परित्राता येन कौरव कश्मलात् पालिता गोप सुन्दर्य स कृष्ण क्वापि नो गतः त्वम् तु भक्ति प्रिया तस्य सततम् प्राणतोऽधिक त्वया हूतस्तु भगवान् यातिनी च क्रियेष्वपि सत्यादित्रियुगे बोध वैराग्यौ मुक्ति साधकौ कलौ तु केवला भक्तिर्ब्रह्म सायुज्यकारिणी इति निश्चित्य चिद्रूप सद्रूपां त्वां ससर्ज परमानन्द चिन्मूर्तिः सुन्दरीं कृष्णवल्लभां बद्ध्वाञ्जलिं त्वया पृष्टं किं करोमीति चैकदा त्वां तदाज्ञापयत् कृष्णो मद्भक्तान् पोषयेति च अङ्गीकृतं त्वया तद्वै प्रसन्नोऽभूद्धरिस्तदा मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकौ विमौ पोषणम् स्वेन रूपेण वैकुण्ठे त्वम् करोषि च भूमौ भक्तविपोषाय छायारूपाम् त्वया कृतम् मुक्तिज्ञानम् विरक्तिम् च सह कृत्वा गता भुवि कृतादिद्वापरस्यान्तम् महानन्देन संस्थिता कलौ मुक्तिक्षयम् प्राप्ता पाखण्डामय पीडिता त्वदाज्ञया गता शीघ्रम् वैकुण्ठम् पुनरेव स कलौ मुक्तिक्षयम् प्राप्ता पाखण्डामय पीडिता त्वदाज्ञया गता शीघ्रम् वैकुण्ठम् पुनरेव सा स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च पुत्रीकृत्ये त्वयिमौ च पार्श्वे स्वस्यैव रक्षितौ उपेक्षात कलौ मन्दौ वृद्धौ जातौ सुतौ तव तथापि चिन्ताम् मुञ्च त्वमुपायम् चिन्तयाम्यहम् कलिना सदृश कोऽपि युगो नास्ति वरानने तस्मिन् स्वाम् स्थापयिष्यामि गेहे गेहे जने जने अन्यधर्मास्तिरस्कृत्य पुरस्कृत्य महोत्सवान् तदा नाहम् हरेर्दासो लोके त्वाम् न प्रवर्तये त्वदन्विताश्च ये जीवाः भविष्यन्ति कलविव पापिनोऽपि गमिष्यन्ति निर्भयम् कृष्णमन्दिरम् येषाम् चित्ते वसेद्भक्ति सर्वदापेम् प्रेमरूपिणि न ते पश्यन्ति कीनासम् स्वप्नेऽप्यमलमूर्तयः न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा भक्तियुक्तमनस्कानाम् स्पर्शनेन प्रभुर्भवेत् न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा हरिरि साध्यते भक्त्या प्रमाणम् तत्र गोपिकाः नृणाम् जन्म सहस्रेण भक्तौ प्रीतिर्हि जायते कलौ भक्तिर्भक्त्या कृष्णः पुरस्थितः भक्तिदुःकरा ये च ते सीदन्ति जगत्त्रये दुर्वासा दुःखमापन्न पुरा भक्तिविनिन्दकः अलम् व्रतैरलम् तीर्थैरलम् योगैरलम् मखै अलम् ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा सूत उवाच इति नारद निर्णीतम् स्वमाहात्म्यम् निशम्य सा सर्वाङ्गपुष्टि संयुक्ता नारदम् वाक्यमब्रवीत् भक्तिरुवाच अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला न कदाचित् विमुञ्चामि चित्ते स्थास्यामि सर्वदा कृपालुना त्वया साधो त्वद्बाधाध्वंसित् मद्बाधाध्वंसिता क्षणात् पुत्रयोश्चेतना नास्ति ततो बोधय सूत उवाच तस्यावच समाकर्ण्य कारुण्यम् नारदो गत तयोर्बोधनमारेभे कराग्रेण विमार्दयन् मुखम् संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ज्ञानम् प्रबुध्यताम् शीघ्रम् रे वैराग्य प्रबुध्यताम् वेद वेदान्त घोषैश्च गीतापाठैर्मुहुर्मुहु बोध्यमानौ तदा तेन कथञ्चेच्चोत्थितौ बलात् नेत्रैरनवलोकन्तौ जृम्भन्तौ सालसावुभौ भगवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ क्षुत्क्षामौ तौ निरीक्षेवम् पुनः स्वापपरायणौ ऋषिश्चिन्तापरो जात किम् विधेयम् मयेति च अहो निद्रा कथम् याति विद्वत्त्वम् च महत्तरम् चिन्तयन्निति गोविन्दम् स्मारयामास भार्गव व्योममाणी तदैव व्योमवाणी तदैव भूत् मारिषे खिद्यतामिति उद्यमः सफलस्तेयम् भविष्यति न संशयः एतदर्थम् तु सत्कर्म सुहर्षे त्वम् समाचर तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः सत्कर्मणि कृते तस्मिन् स निद्रा वृद्धतानयोः भविष्य गमिष्यति गमिष्यति क्षणात् भक्ति सर्वतः प्रसरिष्यति इत्याकाशवत् स्पष्टम् तत्सर्वैरपि विश्रुतम् नारदो विस्मयम् लेभे नेदम् ज्ञातम् इति ब्रुवन्। नारद उवाच अनया आकाशवाण्यापि गोप्यत्वेन निरूपितम् किं वा तत्साधनम् कार्यम् येन कार्यम् भवेत्तयोः क्व भविष्यन्ति सन्तस्ते कथम् दास्यन्ति साधनम् मयात्र किम् प्रकर्तव्यम् यदुक्तम् व्योम भाषया। सूत उवाच तत्र द्वापि संस्थाप्य निर्गतो नारदो मुनिः तीर्थम् विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् वृत्तान्तः श्रूयते सर्वैः किञ्चिन्निश्चित्य नोच्यते असाध्यम् केचन प्रोचुर्दुर्गेयम् इति चापरे मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः। हाहाकारो महानासे त्रैलोक्ये विस्मयावह वेद वेदांत घोषैश्च गीता पाठैर्विबोधि भक्ति ज्ञान विरागाणाम् नोदतिष्ठत्रिकम् यदा उपायो नापरोऽस्तीति कर्णे जपन् जनाः योगिना नारदेनापि स्वयं न ज्ञायते तु यत् तत्कथम् शक्यते वक्तुम् इत्रैरिह मानुषैः एवं ऋषिगणैः पृष्टैः निर्णीयोक्तम् सदुरासदम्। ततश्चिन्तातुरसोऽथ बद्रीवनमागत तपश्चरामि चात्रेति तदर्थम् कृतनिश्चयः। तावद्दर्श पुरुषः सन्कादीन् मुनीश्वरान् कोटिसूरिसमाभासानुवाच मुनिसत्तमः। नारद उवाच इदानीम् भूरिभाग्येन भवद्भिः सङ्गमो भवत् कुमारा ब्रुवताम् शीघ्रम् कृपाम् कृत्वा ममोपरि। भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः पञ्चाहायन संयुक्ता पूर्वेषामपि पूर्वजाः सदा वैकुण्ठनिलयाः हरिकीर्तन तत्पराः लीलामृतरसोन्मत्ता कथामात्रैकजीविनः हरिः शरणम् एवम् हि नित्यम् येषाम् मुखे वचः। अतः काल समादिष्टा जरायुष्मान्न बाधते येषाम् भ्रुभङ्गमात्रेण द्वारपालौ हरे पुरा भूमौ निपतितौ सद्यो यत्कृपातः पुरम् गतौ। अहो भाग्यस्य योगेन दर्शनम् भवतामिह अनुग्रहस्तु कर्तव्यो मयि दीने मद्मद्दया परै। अशरीरगिरोक्तम् यत् तत्किम् साधनमुच्यताम् अनुष्ठेयम् कथम् तावत् प्रब्रुवन्तु सविस्तरम्। भक्ति ज्ञान विरागाणाम् सुखम् उत्पद्यते कथम् स्थापनम् सर्ववर्णेषु प्रेमपूर्वम् प्रयत्नतः। कुमारा ऊचु मा चिन्ताम् कुरु देवर्षे हर्षम् चित्ते समावह उपाय सुख साध्योऽत्र वर्तते पूर्व एव हि। अहो नारद धन्योऽसि विरक्तानाम् शिरोमणि सदा श्रीकृष्णदासानाम् अग्रनिर्योग भास्कर चित्रम् त्वयि चित्रम् न मन्तव्यम् भक्त्यर्थम् अनुवर्तिनि घटते कृष्णदासस्य भक्ते संस्थापना सदा। ऋषिभिर्बहवो लोके पन्था न प्रकटीकृताः श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः। वैकुण्ठसाधक पन्था स तु गोप्यो हि वर्तते तस्योपदिष्टः पुरुषः प्रायो भाग्येन लभ्यते। सत्कर्म तव निर्दिष्टम् व्योमवाचा तु यत्पुरा तदुच्यते शृणुस्वाद्य स्थिरचित्तैः प्रसन्नधीः। द्रव्यज्ञास्तपो यज्ञा योगे यज्ञास्तथा परे स्वाध्याय ज्ञान यज्ञाश्च ते तु कर्म विसूचकाः। सत्कर्म सूचको नूनम् ज्ञान यज्ञ स्मृतो बुधैः श्रीमद्भागवतालापः स तु गीतः शुकादिभिः। भक्ति ज्ञान विरागाणाम् तद्घोषेण बलम् महत् व्रजिष्यति द्वयो कष्टम् सुखम् भक्तेर्भविष्यति। प्रलयम् हि गमिष्यन्ति श्रीमद्भागवतध्वनेः कलेर्दोषा इमे सर्वे सिंहशब्दावृका इव ज्ञान वैराग्य संयुक्ता भक्ति प्रेमरसावः प्रतिगेयम् प्रतिजनम् तथ क्रीडाम् करिष्यति। नारद उवाच अलम् वेदान्तघोषैश्च गीतापाठैः प्रबोधितम् भक्ति ज्ञान विरागाणाम् नोदतिष्ठत्रिकम् तदा श्रीमद्भागवतालापात् तत्कथम् बोधमेष्यति तत्कथासुतु वेदार्थ श्लोके पदे पदे छिन्दन्तु संशयम् येनम् भवन्तो मोघदर्शनाः विलम्बो नात्र कर्तव्य शरणागतवत्सलाः। कुमारः ऊचुः। वेदो उपनिषदाम जा सारा जाता भागवती कथा अत्युत्तमा ततो भाति पृथक भूता फलाकृति आमूलाग्रम रसस्तिष्ठन नास्ते न स्वाद्यते यथा स भूय सम पृथक भूत फले विश्व मनोहर यथा दुग्धे स्थित सर्पी न स्वादायोपकल्पते पृथक भूतमी तद्गव्यम देवानाम रसवर्धनम इक्षुणामपि मये मध्यान्तम् शर्करा व्याप्य तिष्ठति पृथक् भूता च सामिष्टा तथा भागवती कथा इदम् भागवतम् नाम पुराणम् ब्रह्म संहितम् ज्ञान भक्ति ज्ञान विरागाणाम् स्थापनाय प्रकाशितम् वेदांत वेद सुष्णाते गीतायापि कर्तरि परितापवति व्यासे मुह्यन्त ज्ञान सागरे तदा त्वया पुरा प्रोक्तम् चतुश्लोक समन्वितम् तद् तदीय श्रवणात् सद्यो निर्बाधो बादरायण अत्र ते विस्मय केन तत यत प्रश्न करो भवान् श्रीमद् भागवतम् श्राव्यम् शोक दुख विनाशनम् नारद उवाच यद्दर्शनम् च विहेनम् च शुभानि सद्य श्रेयस्तनोति भव दुःख दवार्दितानाम् निःशेष शेष मुख गीत कथैक पानाः प्रेम प्रकाश कृतये शरणम् गतोऽस्मि भाग्योदयेन बहुजन्म समर्जितेन सत्सङ्गमम् च लभते पुरुषो यदा वहि अज्ञान हेतु कृतम् गुहमदान्धकार नाशम् विधाय हि तदोदयते विवेक इति श्री पद्म पुराणे उत्तरखण्डे श्रीमद्भागवत महात्म्ये कुमार नारद संवादो नाम द्वितीयोऽध्यायः।